अयोध्यायाः निर्गत्य रामः लक्ष्मणः सीता च प्रथमं चित्रकूटे नाम गिरौ स्थितं वाल्मीकेः आश्रमम् आगच्छन् तत्र ऋषेः अन्तिकम् अवसन् अत्र अन्तरे दशरथः नृपतिः मृतः भरतः तु युवराजः अपि न राज्यम् अलुभ्यत् ततः नगरम् अत्यजत् रामम् च अनुइच्छति स्म अचिन्तयत् रामः भूपतिः भवतु इति धर्मः।